सर्वेषां गीतसोपानवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी. विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्या विहीनः पशुः. अस्तु, चतुर्थी विभक्तिः इति विषयः पूर्वमेव आरब्धः, सः विषयः एव प्रवर्तमानः अस्ति. अद्यापि तस्य अनुवर्तनं भवति. द्विपञ्चाशत्युत्तर एकशतं पुटं पश्यन्तु, पेज् 152 पश्यन्तु. द्विपञ्चाशत्यधिक एकशतं पुटं पश्यन्तु, तस्मिन् पुटे चतुर्थः अभ्यासः वर्तते. तस्मात् आरभ्य विषयस्य अवलोकनं कुर्मः. चतुर्थी विभक्तेः पुनरवलोकनं भवति अद्य. चतुर्थी विभक्तेः प्रसङ्गे किं ज्ञातव्यम्? यत्र यत्र दानक्रिया अस्ति तत्र यस्मै वयं किमपि दद्मः तस्य चतुर्थी विभक्तिः भवति. उदाहरणार्थं गुरुः वटवे आशिषं ददाति इति वाक्यमस्ति. गुरुः वटवे आशिषं ददाति, तस्मिन् वाक्ये वटवे इत्यस्य चतुर्थी विभक्तिः अस्ति. यस्मै ददाति तस्य चतुर्थी विभक्तिः भवति. यः ददाति तस्य प्रथमा विभक्तिः भवति. यं ददाति तस्य द्वितीया विभक्तिः भवति. यं ददाति तत् कर्मपदं भवति इति सारांशः अस्ति. अस्मिन् पुटे एकं कोष्टकं दत्तमस्ति. कोष्टकस्य आधारेण कानिचन वाक्यानि लेखनीयानि. उदाहरणत्वेन प्रथमं वाक्यं स्थापितमस्ति. उदाहरणं दृष्ट्वा कोष्टकस्थानि पदानि उपयुज्य अन्यानि वाक्यानि लेखनीयानि, वक्तव्यानि, रचनीयानि इति अत्र वार्ता अस्ति. सूर्यकुमारी भगिनी आरम्भं करोतु.
उदाहरणमस्ति,
सूचनां पठतु.
आम्, एतस्य कोष्टकस्य साहाय्येन यथोदाहरणं वाक्यानि रचयत. एतस्य षष्ठी एकवचनमस्ति सर्वनाम पदस्य
प्रातिपदिकम्
एष. एतत् क्षम्यताम्,
एतद्
एतद्
दकारान्तप्रातिपदिकम्.
आमां,
कोष्ठकस्य इति लिखितमस्ति. लिङ्गं किम्? अत्र वचनं किम्?
प्रथमा विभक्ति षष्ठी एकवचनं कोष्ठकस्य नपुंसकलिङ्गं. भगिनि,
नपुंसकलिङ्गं षष्ठीविभक्त्यन्तानि रूपाणि त्रीणि रूपाणि वदतु.
कोष्टकस्य कोष्टकाभ्यां
न
क्षम्यतां, कोष्टकस्य कोष्टकयोः कोष्टकानां
कोष्टकानाम् इति उक्तवती. तत्र णत्वं नास्ति, किमर्थम्?
ठकार अस्ति मध्ये.
ठकारः बाधकवर्णः खलु?
हा भगिनि.
अतः णत्वं नास्ति, अतः दन्त्यनकारः एव तत्र आयाति. कोष्ठकानां तत्र निमित्तं किमस्ति णत्वप्रसङ्गे?
षकारः अस्ति.
षकारः निमित्तमस्ति, तथापि ठकारः बाधकवर्णः, अतः णत्वं न भवति. अग्रे वदतु.
साहाय्येन, साहा तृतीय एकवचनम् अस्ति.
प्रथमान्तं किमस्ति?
साहाय्यं.
साहाय्यम् इति पदं कीदृशं पदम्?
साहाय्यं नपुंसकलिङ्गपदं साहाय्य
कृदन्तपदं वा तद्धितान्तपदं वा?
तद्धितान्तपदं.
तद्धितान्तपदमस्ति चेत् प्रातिपदिकात् तद्धितप्रत्ययः विहितः भवति. अत्र प्रातिपदिकं किम्? अस्य पदस्य निर्माणार्थं किं प्रातिपदिकमस्ति?
सहाय
सहाय इति प्रातिपदिकं. सहाय इति प्रातिपदिकं स्वीकृत्य ष्यञ् इति प्रत्ययस्य योजनेन तद्धितप्रत्ययस्य योजनेन साहाय्यम् इति रूपं भवति. तत्र आदिवृद्धिः भवति, ह्रस्व अकारस्य वृद्धिः भूत्वा आकारः सिद्ध्यति. सहायस्य भावः साहाय्यम्. अत्र ष्यञ् इति प्रत्ययः अस्ति, एतादृशम् अर्थमेव ददाति. सहायता इति पदमपि सहायत्वम् इति पदमपि समानार्थकं पदमेव. सहायता इत्यत्र तल् इति प्रत्ययः अस्ति, सहायत्वम् इत्यत्र त्वा इति प्रत्ययः अस्ति. द्वयोः कृते एकं सूत्रमस्ति, तस्य भावस्त्वतलौ, तस्य भावस्त्वतलौ इति सूत्रमस्ति. तेन सूत्रेण त्वा प्रत्ययः, तल् प्रत्ययः, एतौ द्वौ प्रत्ययौ विहितौ साहाय्यं, सहायता, सहायत्वं त्रीणि पदानि समानार्थकानि. अग्रे वदतु.
यतोदाहरणं यतः उदाहरणं
यथा
उदाहरणम्
अत्र सन्धिकार्यमस्ति, गुणसन्धिकार्यमस्ति. उदाहरणम् इति पदमस्ति, उदाहरणम् इति कृदन्तपदं. विवृणोतु, धातुः कः, उपसर्गः कः, प्रत्ययः कः?
उत् उपसर्गः अहर्
आ उपसर्गः
उत् आ हृ अन ल्युडन्तम
ल्युडन्तमस्ति.
नत्वमपि भवति रेफ अस्ति चेत्.
हरणम् इति रूपं सिद्ध्यति, ल्युडन्तरूपं सिद्ध्यति. हृधातुतः हरणम् इति रूपं भवति. हृधातुं जानाति खलु, हृधातोः रूपमेव लटीरूपं हरति. हृधातोः लटीरूपं हरति अस्ति, तत्रापि गुणकार्यं भवति. ल्युट् प्रत्ययः गुणकार्यं भवितुम् आनुकूल्यमस्ति तस्मिन् प्रत्यये अपि. ल्युट् प्रत्ययः अपि आर्धधातुकप्रत्ययः, किन्तु कित् गित् नित् नास्ति, णित् इणित् अपि नास्ति. इत्युक्ते आर्धधातुकसामान्यप्रत्ययः, आर्धधातुकसामान्यकृत् प्रत्ययः अस्ति इति कारणतः तत्र गुणकार्यं भवितुम् अर्हति. धातुः इगन्तधातुः, हृधातुः, अतः गुणः भूत्वा हरणम् इति रूपं सिद्ध्यति. उत् उपसर्गपूर्वक आ उपसर्गपूर्वक हृधातुतः ल्युट् प्रत्ययस्य योजनेन उदाहरणम् इति रूपं सिद्ध्यति. वच् धातोः रूपमेव वाक्यं, वच् धातोः रूपमेव वाच्यम्. वाच्यमपि रूपमस्ति, वाक्यमपि अस्ति. रचयत वदतु.
रचयत रचिदात् रचि रचियोगः क्षम्यतां भगिनि, मध्यमपुरुष बहुवचनम् अस्ति, लोट्लकारः
लोट्लकारः मध्यमपुरुष बहुवचनम्. उदाहरणम् इत्यस्मिन् स्थाने दृष्टान्तः इति पदमपि योजयितुं शक्नुमः. श्रुतवती वा?
दृष्टान्तः
दृष्टान्तः इत्युक्ते उदाहरणं
भगिनि. दृष्टान्तः पर्स्पेक्टिव् इति वक्तुं शक्नुमः किल? पर्स्पेक्टिव्
दृष्टान्तः इत्युक्ते उदाहरणं भगिनि.
अस्तु
शुभदा भगिनि, भवती किं चिन्तयति?
दृष्टान्तः इति उदाहरणस्य समानार्थकशब्दः इति वक्तुं शक्यते इति मन्ये.
सूर्यकुमारी भगिनी, यथोदाहरणं वाक्यानि, अनयोर्मध्ये सन्धिकार्यमस्ति, सन्धेः नाम किम्?
अन्स्वर् सन्धि उदाहरणं मकार अस्ति, परवर्णः अलः अस्ति, मौनस्वारः इत्यनेन अनुस्वारः भवति.
मौनुस्वारः इति सूत्रेण अनुस्वारसन्धिकार्यं भवति, मकारस्य स्थाने अनुस्वारादेशः भवति. अग्रे भवती करोतु, उदाहरणं पठतु आदौ.
उदाहरणमस्ति, गृहस्थः अतिथये आतिथ्यं ददाति. गृहस्थः प्रथम एकवचनमस्ति, अतिथते तये चतुर्थी एकवचनमस्ति, आतिथ आतिथ्यम् आतिथ्यं द्वितीयविभक्ति एकवचनमस्ति ददाति क्रियापदमस्ति एकवचनं
आतिथ्यम् इति नपुंसकलिङ्गपदं चेदपि अस्मिन् वाक्ये कर्मपदं गृहस्थः इति पदम् अस्ति समस्तपदं भवती किञ्चित् वक्तुमिच्छति वा
यः गृहे स्तः सः गृहस्थः
इतोपि स्पष्टतया वक्तव्यं रमेशमहोदय वदतु समस्तपदं गृहस्थः
गृहे तिष्ठति इति गृहस्थः
समासस्य नाम वदतु
समासस्य नाम कुम्भकारः इव तादृशसमासः एव अस्ति तदपि उपपदसमासः प्रायः
उपपदसमासः अत्र गृह इति पूर्वपदस्य प्रातिपदिकमस्ति समासानां पदनिर्माणप्रसङ्गे तत्र प्रातिपदिकमेव स्वीकर्तव्यं गृह इति प्रथमपदस्य प्रातिपदिकमस्ति अपि च स्थाधातोः रूपमेव तिष्ठति स्थाधातोः रूपम् अत्र प्रयुक्तमस्ति तस्य कृते एकं सूत्रमस्ति सुपि स्तः इति सूत्रमस्ति सुपि स्तः इति सूत्रेण का इति प्रत्ययः विहितः भवति सुबन्त उपपदे तिष्ठतेः क प्रत्ययः भवति आतोनुपसर्गे कः इति एकं सूत्रमपि अस्ति अत्र आकारान्तेभ्यः धातुभ्यः का प्रत्ययः विहितः भवति उपपदसमासः अस्ति का इति प्रत्ययः अपि अत्र अस्ति स्था इति धातुः आकारान्तधातुः आकारान्तेभ्यः धातुभ्यः क इति प्रत्ययः भवति अत्र गृह इति उपपदम् इव कार्यं करोति अस्मिन् समस्तपदे उपपदसमासः अस्ति एतादृशानि पदानि अन्यानि पदानि महोदय भवान् वदतु कोष्टकस्थः
कोष्टके तिष्ठति इति कोष्टकस्थः
योगस्थः
योगे तिष्ठति योगस्थः
शरीरस्थः
शरीरे तिष्ठति इति शरीरस्थः
कण्ठस्थः
कण्ठे तिष्ठति इति कण्ठस्थः
गृहस्थः
गृहे तिष्ठति इति गृहस्थः
विषमस्थः इति श्रुतवान् वा
विषमस्थः वा
विषमस्थः
न श्रुतं भगिनि
पदमस्ति समस्थः विषमस्थः इति पदानि अपि सन्ति तानि पदानि अपि अनेन सूत्रेण एव निर्मीयन्ते
सुपिस्थः इति सूत्रं वा
सुपिस्थः का इति प्रत्ययः विहितः भवति अतिथिः इति पदस्य अर्थः अहं पूर्वम् उक्तवती पुनः स्मारयामि अतति सातत्येन गच्छति न तिष्ठति अतति सातत्येन गच्छति न तिष्ठति सातत्यम् इति तद्धितान्तं पदमस्ति सततस्य भावः सातत्यम् अतिथिः इत्यस्मिन् स्थाने आगन्तुः इत्यपि योजयितुं शक्नुमः साधारणतया वयं किं शृणुमः अतिथिः अभ्यागतः इति वदामः अनयोर्मध्ये भेदः कः कोऽपि वदतु अतिथिः इत्युक्ते कः अभ्यागतः इत्युक्ते कः
अभ्यागतः यं वयं किम् आमन्त्रणं न यस्मै आमन्त्रणं न दत्तवन्तः ते अथवा सः
इतोपि
अतिथिः तु आमन्त्रणस्य अनन्तरम् एव आगच्छति
अतिथिः इत्युक्ते अज्ञातपूर्व गृह आगतव्यक्तिः ज्ञातपूर्वः नास्ति अतिथिः किन्तु अभ्यागतः ज्ञातपूर्वः ज्ञातपूर्व गृह आगतव्यक्तिः अभ्यागतः अज्ञातपूर्वः चेत् अतिथिः
तदर्थमेव अतिथिः देवो भवति
उत्तमम् आतिथ्यम् इति पदं दत्तमस्ति सूर्यकुमारी भगिनी वदतु तत् कृदन्तं वा तद्धितान्तं वा
आतिथ्यम् अहं चिन्तयामि तद्धितान्तपदं
तत्र प्रातिपदिकं किम्
अतिथि
अतिथि इति प्रातिपदिकात् एकेन विशिष्ट तद्धितप्रत्ययेन निर्मितं पदमस्ति न्या इति दत्तमस्ति वस्तुतः तद्धितान्तं पदमेव अतिथेः इदम्
आतिथ्यम्
अतिथेः इदम् आतिथ्यम् इति वक्तुं शक्यते आतिथ्यम् इत्यस्मिन् स्थाने अतिथेः परिचर्या इति अपि वक्तुं शक्यते अत्र अतिधये इति रूपं दत्तमस्ति अतिधये इति चतुर्थी विभक्ति एकवचनरूपम् अस्ति तत् रूपं कथं साधनीयम्
धातुः कः उक्तवती भगिनी अतिथि इत्यस्मिन्
अतिथि इति प्रातिपदिकं
तस्मिन् कोऽपि धातुः नास्ति वा धातुजन्य नास्ति
अतिथि इति पदं कथं साधनीयम् इति भिन्ना वार्ता किन्तु आतिथ्यम् इत्यत्र तद्धितान्तपदमस्ति इति कारणतः अतिथि इति प्रातिपदिकं स्वीकर्तव्यं खलु
आमाम्
अतिधये इति रूपं दत्तमस्ति अतिथि इति प्रातिपदिकमस्ति तत् प्रातिपदिकं स्वीकृत्य चतुर्थी विभक्ति एकवचनप्रत्ययः अन्ये प्रत्ययस्य योजनेन अतिधये इति रूपं सिद्ध्यति भवती विवृणोतु अतिधये
अतिथये अतिथि इति प्रातिपदिकम् इकारान्तपुल्लिङ्गप्रातिपदिकम् इकारान्त अस्ति इति कृत्वा तस्य घीसंज्ञा अस्ति तत्र अतिथि अतिथियोगः ङे इत्यस्मात् ए इति अवशिष्यते तत्र घीसंज्ञा अस्ति इति कारणात् घेर्ङिति इत्यनेन गुणः भवति प्रातिपदिकस्य अन्तिम अलः गुणः भवति अतः अतिथि इत्यस्य अतिथे योगः ए इति भवति तदनन्तरम् एचो यवायावः अतिथये इति भवति
उत्तमम् आदौ घेर्ण्यति इति सूत्रेण गुणादेशः भवति चेत् अतिथि इत्यत्र अतिधे इति रूपं सिद्ध्यति अतिधे योगः ये इति स्थितिः अस्ति तत्र एचो यवायावः इति सन्धिसूत्रेण यान्तवान्तादेशसन्धिः भूत्वा एकारस्य स्थाने एव अतिधे इत्यत्र एकारः अस्ति एकारस्य स्थाने ऐ आदेशः भवति पश्चात् वर्णमेलनेन अतिधये इति रूपं सिद्ध्यति अतिधियोगः ऐ योगः ये वर्णमेलनेन अतिधये इति रूपं सिद्ध्यति सूर्यकुमारी भगिनी बहुवचने इदं वाक्यं वदतु बहुवचनरूपं प्रयुज्य वदतु
गृहस्थः अतिथिभ्यः आतिथ्यं ददाति
अतिथिभ्यः इति रूपम् उक्तवती तत् रूपं कथं साधनीयम् अतिथि इति प्रातिपदिकं भ्यस् इति प्रत्ययः
हा भगिनि झल् वर्णः अस्ति अतिथिभ्यः भ्यस् अस्ति चेत् ससजुहोरुः रेफस्थाने करवसाने विसर्जनीयः इत्यनेन विसर्गः भवति
अत्र अतिथि प्रातिपदिकं भ्यस् इति चतुर्थी विभक्ति बहुवचनप्रत्ययः अस्ति भ्यस् इत्यत्र अन्ते सकारः अस्ति ससजुषोरुः इति सूत्रेण सकारस्य स्थाने रेफादेशः भवति अतः अतिथिभ्यर् इति रूपं भवति आदौ पश्चात् खरवसानयोर्विसर्जनीयः इति सूत्रेण अवसानावस्थायाम् अत्र रेफः अस्ति इति कारणतः रेफस्य स्थाने विसर्गादेशः भवति खरवसानयोर्विसर्जनीयः इति सूत्रेण तेन अतिथिभ्यः इति रूपं सिद्ध्यति अग्रिमं वाक्यं करोतु
अग्रिमवाक्यं रतिकः सारथिः अस्ति सारथिः चतुर्थी एकवचनं सारथये भवति रतिकः सारथये किं ददाति
प्रग्रहं
प्रग्रहं ददाति
प्रग्रहः इति पुंलिङ्गपदमस्ति कर्मपदम् अत्र तु कर्मपदमेव प्रग्रहम् इति कर्मपदमस्ति वस्तुतः प्रथमाविभक्तिरूपं प्रग्रहः पुंलिङ्गपदमस्ति प्र उपसर्गपूर्वक ग्रहधातोः रूपम् अस्ति ग्रहधातुतः अप् इति कृत् प्रत्ययस्य योजनेन ग्रहः इति रूपं सिद्ध्यति अप् इति प्रत्ययः आर्धधातुक कृत् प्रत्ययः अस्ति, घञ् प्रत्ययस्य अपवादः इति वक्तुं शक्यते. तस्य कृते अपि एकं विशिष्टं सूत्रमस्ति, ग्रहादिभ्यः धातुभ्यः अप् प्रत्ययः विहितः भवति इति तेन सूत्रेण उच्यते. तस्मिन् सूत्रे ग्रह धातोः उल्लेखः अस्ति, घञ् प्रत्ययस्य अपवादत्वेन अप् इति प्रत्ययः आगतः. वस्तुतः रूपमस्ति प्रग्रहः, प्रगृह्यते अनेन इति प्रग्रहः. रथिकः इति पदमस्ति, तस्मिन् स्थाने रथि इति रूपं योजयितुं शक्यते वा न वा? रथि इत्यत्र प्रातिपदिकं किमस्ति?
रथ.
रथी.
ओ रथी. रथी अस्ति वा?
प्रातिपदिकं किमस्ति?
रथी.
रथिन् वा?
हा रथिन्, नकारान्तप्रातिपदिकं, गुणीशब्दवत्.
गुणिनि वा? ओके.
रमेश महोदय भवान् वदतु, रथिकः इत्यस्मिन् स्थाने रथी, रथस्थः, रथोपस्थः इत्यादीनि पदानि योजयितुं शक्यते वा न वा?
शक्यते इति भाति, अकारान्त अङ्गः एव अस्ति इति रथि इति वक्तुं इन् प्रत्ययः भवति एव, तर्हि रथि भवति.
अत इनि ठनौ इति सूत्रं खलु, अत इनि ठनौ इति सूत्रेण अत्र इनि प्रत्ययः विहितः भवति. अदन्तप्रातिपदिकमस्ति रथ इति, अदन्तप्रातिपदिकमस्ति, अतः इनि प्रत्ययस्य योजनेन रथी इति रूपं सिध्यति. रथस्थः इत्युक्ते
रथे तिष्ठति इति रथस्थः.
तत्पदं योजयितुं शक्यते वा?
रथस्थः. सारथिः अपि रथस्थः एव अस्ति खलु, न अस्ति वा?
सारथिः अपि रथस्थः एव अस्तु. रथोपस्थः इति अन्यत् पदम् अस्ति,
रथे उपस्थितः इति रथोपस्थः.
रथारोही इति कथनेन
यः रथम् आरूढः भवति सः रथ. किम् उक्तवती भगिनी, तत् शब्दः कः? रथारोही वा?
रथारोही
इणि प्रत्ययः आरोह रथारोही, तत्रापि इणि प्रत्ययः भवति वा?
रथारूढः इति भिन्नं खलु,
रथारूढः भिन्नम् आरूढः.
ईदृशानि पदानि अपि सन्ति इति मम अवगमनम्. रथः अस्य अस्ति इति रथिकः, तत्र भिन्नप्रत्ययः अस्ति इति भाति रथिकः इत्यत्र. सारथिः इति प्रथमान्तं पदमस्ति, चतुर्थीविभक्त्यन्तं सारथये, सारथये इति रूपं साधनीयम्. सूर्यकुमारी भगिनी वदतु, सारथये.
सारथ, सारथ प्रातिपदिकमस्ति.
सारथि,
सारथि प्रातिपदिकमस्ति. ने प्रत्यय अस्ति. सारथी योगः ये ये अवशिष्यते, सारथि ये गुण भवति. सारथे सारथे ये एचो यवायावः सारथया भवति, वर्णमेलनेन सारथये भवति.
बहु सम्यक्, उत्तमं भगिनि. सारथि इति प्रातिपदिकं स्वीकृत्य ञे प्रत्ययस्य योजनेन अनुबन्धलोपानन्तरं सारथि योगः ये इति स्थितिः अस्ति. सारथि इति ह्रस्व इकारान्तशब्दः, पुंलिङ्गशब्दः, तस्य घिसंज्ञा अस्ति इति कारणतः घेर्णिति इति सूत्रेण घेः नित् प्रत्यये परे, अत्र ञे प्रत्ययः नित् प्रत्ययः, अतः गुणः भवति घेर्णिति इति सूत्रेण. तदा सारथे इति रूपं सिध्यति. सारथे योगः ये, तत्र यचोयवायावः इति सन्धिसूत्रेण एकारस्य स्थाने ऐ आदेशः भवति, पश्चात् वर्णमेलनेन सारथये इति रूपं सिध्यति. रथिकः सारथये प्रग्रहं ददाति, बहुवचने रूपं परिवर्त्य वदतु.
रथिकः सारथिः
सारथि इति प्रातिपदिकात् भ्यस् प्रत्ययस्य योजनेन रूपं समीचीनतया वदतु.
सारथि योगः भ्यस् भ्यस् पूर्वं यदा मया उक्तं सकारस्थाने विसर्गः भवति. सारथियोगः भ्यः सारथिभ्यः.
वाक्यं वदतु.
रथिकः सारथिभ्यः प्रग्रहं ददाति.
प्रग्रहम् इति साधु वा प्रग्रहान् इति साधु वा?
प्रग्रहां ददाति.
अत्रापि बहुवचनरूपं साधु भवति वा इति मम शङ्का.
प्रग्रहान्
सारथिभ्यः प्रग्रहान् ददाति इति साधु भवति वा?
भवति खलु.
प्रग्रहः इत्युक्ते किम्?
बहुमानम्
भवत्याः अवगमनं किं प्रग्रहः इत्युक्ते कः? एकं वस्तु वदतु. रमेश महोदय वदतु, प्रग्रहः कः?
न जानामि. प्रायः अश्वान् अश्वान् येन अश्वस्य एव येन अश्वस्य नियमनं कुर्मः तदेव प्रग्रहम् इति अहं चिन्तयामि.
उत्तमं. हयादि अथवा अश्वादि संयमन रज्जुः इत्युक्ते अश्वस्य नियमनार्थं यस्य रज्वोः प्रयोगः क्रियते सः एव प्रग्रहः. अश्वादि संयमन रज्जुः. इदानीम् अवगतं खलु भगिनि?
भगिनि,
प्रग्रहः इत्युक्ते रज्जुः, अश्वसंयमन रज्जुः. ददाति प्रसङ्गे वदतु भवती. ददाति इति किं रूपं, तत्र किं किं कार्यमस्ति?
धातु अस्ति, जिहोत्यादिगणः द्वित्वं भवति. तदनन्तरं पूर्व ह्रस्वं भवति. ददा योगहति ददाति.
उत्तमं. ददाति इति जुहोत्यादिगणीय दाधातोः रूपम् अस्ति. नवरूपाणि अपि ज्ञातव्यानि खलु. नवरूपाणि एकवारं स्मारयामि. ददाति, दत्तः, ददति. ददासि, दत्तः, दत्त. ददामि, दद्वः, दद्मः. एवं रूपाणि भवन्ति. दाधातुः उभयपदी धातुः, अतः आत्मनेपदीरूपाणि अपि ज्ञातव्यानि. एतावत्पर्यन्तं परस्मैपदीरूपाणि ज्ञातवन्तः. ददाति, दत्तः, ददति, इमानि रूपाणि परस्मैपदीरूपाणि. आत्मनेपदीरूपाणि अपि सन्ति, तानि रूपाणि अपि अस्माभिः ज्ञातव्यानि. दर्शना भगिनी, अग्रिमं वाक्यं भवती करोतु.
गुरुः वटवे आशिषं ददाति. गुरुः वटुभ्यः आशिषं ददाति.
एकवचने वदतु आदौ.
गुरुः वटवे आशिषं ददाति.
गुरुः इति उक्तवती. गुरुशब्दस्य प्रसङ्गे भवती यद् जानाति तद्वदतु.
किं वदनीयं? गुरुः यः श्रेष्ठः अस्ति सः गुरुः, अपि च
उकारान्तपुंलिङ्गशब्दः. गुरुशब्दः अध्यापकः इत्यस्मिन् अर्धे, अध्यापकः इति अर्थः अत्र अस्ति चेत् गुरुः इति पुंलिङ्गशब्दः एव भवति. अध्यापकः इत्यस्मिन् अर्धे तस्य प्रयोगः भवति चेत् गुरुः इति पुंलिङ्गशब्दः एव भवति, किन्तु गुरु इति शब्दस्य त्रिषु लिङ्गेषु रूपाणि भवन्ति किन्तु भिन्न अर्थे। हेवि इत्यस्मिन् अर्थे गुरु इति शब्दस्य रूपाणि त्रिषु लिङ्गेषु सन्ति, नपुंसकलिङ्गे गुरु, पुंलिङ्गे गुरुः, स्त्रीलिङ्गे गुरुवी। भारः हेवि इत्यस्मिन् अर्थे तानि रूपाणि त्रिषु लिङ्गेषु सन्ति, किन्तु अध्यापकः इत्यस्मिन् अर्थे केवलं पुंलिङ्गे गुरुः इति रूपमेव अस्ति। वटु इति प्रातिपदिकम् अस्ति, वटुः इति ह्रस्व उकारान्त पुंलिङ्गशब्दः, तस्मात् वटवे इति रूपं साधनीयं। वक्तुमिच्छति वा?
नैव भगिनि।
रमेश महोदय करोतु।
क्षम्यतां भगिनि,
चिन्ता मास्तु।
वटु प्रथमा चतुर्थी विभक्ति खलु, ज्ञे इति प्रत्ययः अस्ति, तर्हि वटु इति गीसज्ञकः अस्ति, शेषोग्यसखि इति सूत्रेण गीसज्ञा प्राप्नोति। तर्हि वटु योगः निघेर् निति इति सूत्रेण गुणः भवति, तर्हि उकारः गुणवर्ण गुण अनुकूलवर्णः अस्ति, उकारस्य स्थाने ओकारः आदेशः भवति, वट् ओग योगः ओ योगः ए इति स्थितिः भवति, वट् योगः ओ अपि च ए ओकारस्य स्थाने अवादेशः भवति, एचोयवायावः इति सूत्रेण वटव वटवे इति रूपं सिद्ध्यति।
उत्तमम्। ह्रस्व उकारान्तशब्दः अस्ति, ह्रस्व उकारान्तशब्दः अस्ति इत्यतः तस्य घिसंज्ञा अस्ति, अतः घेर्निति सूत्रेण गुणः, पश्चात् एचोयवायावः इति सन्धिसूत्रेण औ आदेशः भवति, ओकारस्य स्थाने एव केवलम् ओकारस्य स्थाने एव औ आदेशः भवति, वर्णमेलनेन वटवे पितृपं सिद्ध्यति। आशीः इति प्रथमा विभक्ति एकवचनरूपम् अस्ति, अत्र आशिषम् इति दत्तमस्ति, आशिषम् इति कर्मपदमस्ति, आशिषम् इत्यस्मिन् स्थाने आशीर्वादम् इति अपि वक्तुं शक्यते। मया किं ज्ञातम् इत्युक्ते, आ उपसर्गपूर्वक स्यास् धातुतः क्विप् प्रत्ययः योजितः, तेन आशिष् इति रूपं सिद्ध्यति, पश्चात् आशिष् इति भवति। प्रथमाविभक्ति एकवचनरूपम् आशीः। महोदय, भवान् वक्तुमिच्छति वा रूपाणि, आशिष्य शब्दस्य रूपाणि?
आशी आशिषि आशीषि इति प्रायः आशि आशिषि आशीषि तदेव,
तथा नास्ति महोदय, अहम् एकवारं स्मारयामि, आशीः आशिषौ आशिषः, आशीः आशिषौ आशिषः सम्बोधनरूपम्, आशिषम् आशिषौ आशिषः, आशिषा आशीर्भ्याम् आशीर्भिः, आशिषे आशीर्भ्याम् आशीर्भ्यः, आशिषः आशीर्भ्याम् आशीर्भ्यः, आशिषः आशिषोः आशिषाम् आशिषि आशिषोः आशिषु आशिषु। इत्युक्ते सप्तमी विभक्ति बहुवचने रूपद्वयमस्ति। केवलं प्रथमाविभक्तिरूपाणि द्वितीयाविभक्तिरूपाणि इदानीं वदामि। आशीः आशिषौ आशिषः, आशिषम् आशिषौ आशिषः। आशिषः इति पदं बहुत्र आयाति अस्मिन् शब्दे। प्रथमाविभक्ति बहुवचनरूपम् आशिषः, द्वितीयाविभक्ति बहुवचनरूपम् आशिषः, पञ्चमी विभक्ति एकवचनरूपम् आशिषः, षष्टिविभक्ति एकवचनरूपमपि आशिषः। अस्मिन् शब्दे पञ्चसु स्थलेषु सम्बोधनरूपं मिलित्वा पञ्चसु स्थलेषु आशिषः इति रूपं द्रष्टुं शक्नुमः। गुरुः वटवे आशिषं ददाति। दर्शना भगिनी, भवती वदतु, बहुवचनरूपं वदतु, वाक्यं परिवर्त्य बहुवचनरूपम् उपयुज्य वदतु।
गुरवः गुरवः वटवे आशिषं ददाति। गुरवः पटुभ्यः आशिषं ददाति।
ददाति इति साधु नास्ति, गुरवः
क्षम्यता क्षम्यता ददति ददति क्षम्यता गुरवः वटवे आशिषं ददति गुरवः वटुभ्यः आशिषं ददति
एकवचनरूपम् आशिषम् अस्ति तस्य रूपमपि बहुवचने वदतु
गुरवः वटवे आशिषः ददति
हा गुरवः वटुभ्यः आशिषः ददति अस्मिन् वाक्ये सर्वाणि पदानि बहुवचने एव सन्ति गुरवः वटुभ्यः आशिषः ददति अग्रिमं वाक्यं करोतु
माता तूनवे दुग्धं ददाति माता सूनुभ्यः दुग्धं ददाति
माता इत्यत्र प्रातिपदिकं
मातृ ऋकारान्तस्त्रीलिङ्गपदं मातृ
सूनुः इति प्रथमान्तं पदमस्ति सूनवे इति चतुर्थी रूपमस्ति गुरुशब्दवत् अस्य रूपमपि साधनीयं गुरुः सूनुः एवमेव अत्र गुरवे सूनवे इति रूपं साधनीयं सूर्यकुमारी भगिनी भवती वदतु सूनवे सूनु इति प्रातिपदिकं स्वीकृत्य न्य इति प्रत्ययं योजयामः
आं भगिनि ह्रस्व उकारधातुः अस्ति गि गुसंज्ञः अपि भवति तत्कारणेन गुणः भवति सुनो भवति सुनो योगः ने ने प्रत्ययस्य निरणबन्धरूपं ये सुनो योगः ये
सूनो खलु
सूनो योगः ये यचो यवायावः सूत्रेण औ भवति सुनवे वर्णमेलनेन सुनवे सुनवे भवति सूनवे भवति
सूनवे भवति सूनुः इति रूपं प्रथमान्तं सूनवे इति चतुर्थी रूपमस्ति सूनु इति प्रातिपदिकं तत्र ञ इति प्रत्ययः अस्ति घेर्निति सूत्रेण गुणः यचोयवायवः सूत्रेण औ आदेशः भवति वर्णमेलनेन सूनवे इति रूपं सिद्ध्यति गुरुः गुरवे वटुः वटवे सुबाहुः सुबाहवे सूनुः सूनवे दुग्धम् इति पदं दत्तमस्ति शुभदा भगिनी वदतु तत् किं
दुग्धं दुग्धम् इति दुहप्रपूरणे इति धातुः अस्ति इति मन्ये तस्य क्तान्तरूपम् अस्ति परन्तु अत्र तु नामरूपेण अस्ति खलु अतः मया चिन्तितं तत् न सम्यक् इति दुग्धम् इति ल्युडन्त भवेत् वा इति मम
ल्युडन्तमस्ति चेत् दोहनं
दोहनम् ओके
भवती करोतु दोहनं रूपं साधयतु दुह् धातुः उदुपधधातुः पुगन्तलघुपदस्य च उपयुज्य वदतु दोहनं
दोहनं दुह योगः ल्युट् प्रत्ययः ल्युट् इत्यस्मात् यु तस्य युवोरनाकौ इत्यनेन अन इति दुहयोगः अन अधुना अन इति आर्धधातुकप्रत्ययः परन्तु सामान्य आर्धधातुकप्रत्ययः तत्र यत्णित् नास्ति अपि च कितिङित् नास्ति इति कृत्वा सः स च प्रत्ययः गुणं गुणस्य प्रवर्तकः भवति अतः दोह इति भवति दोह पुगन्तलघुपदस्य च इत्यनेन दुह इत्यस्य दोह भवति दोह योगः अन दोहन तस्य नपुंसकलिङ्गे दोहनम् इति भवति
दोहनम् इति ल्युडन्तपदमस्ति दुग्धम् इति क्तान्तरूपं नपुंसकलिङ्गे खलु
अस्तु हा हा तर्हि तस्य क्विप् प्रत्ययस्य योजनेन प्रातिपदिकं भवति वा
न न तथा नास्ति केवलं नपुंसकलिङ्गरूपं क्तान्तरूपम्
अस्तु परन्तु अत्र तु नामरूपेण अस्ति खलु अत्र क्रियापदं नास्ति इति कृत्वा दुग्धम् इति नामपदं खलु
नामपदं कृदन्तप्रातिपदिकं सिद्ध्यति
प्रातिपदिकात्
सुप्रत्ययस्य योजनेन क्तान्तरूपाणि त्रिषु लिङ्गेषु साधयितुं शक्नुमः
अस्तु अस्तु
क्तान्तरूपं दुग्धम् अस्ति क्तवत् रूपं किं भवति
तव तु
रमेश महोदय वदतु तावत् रूपं किं भवति
दुग्धवान्
दुग्धवान् कथान्तरूपं तावत् रूपं समानरीत्या साधयितुं शक्नुमः खलु वदतु
ददोर्धोदः इत्यनेन धा भवति खलु
अत्र धातुः दुः अस्ति शुभदा भगिनी भवती शृणोतु तत्र दुः धातुः अस्ति कथान्तरूपं दुग्धम् अस्ति दुः योगः क्त इति स्थितिः अस्ति तत्र किं चिन्तनमस्ति वदतु सन्धिकार्याणि वदतु
प्रयत्नं करोमि भगिनि दुः योगः क्त क्त इत्यस्मात् त इति अवशिष्यते
दुः धातुः दकारादिधातुः हकारान्तधातुः
दकारादिहकारान्तधातुः दादेर्धातोर्घः इत्यनेन हकारस्य घकारः भवति दुघ् योगः क्त क्त इत्यस्मात् त इति अवशिष्यते अधुना दुघ् योगः त तस्य झषस्तथोर्धोधः इत्यनेन तकारस्य धकारः भवति दुघ् योगः ध इति भवति तदनन्तरं झलां झषि इत्यनेन दुग् अल्पप्राणगकार दुग् योगः ध दुग्ध इति भवति इति मन्ये
उत्तमं तत्र त्रीणि सूत्राणि स्मर्तव्यानि दकारादिधातुः हकारान्तधातुः इत्यतः दादेर्धातोर्घः इति सूत्रेण घकारादेशः भवति हकारस्य स्थाने दुः इत्यत्र दुग्ध भवति पश्चात् झषस्तथोर्धोदः तदनन्तरं झलां झष् झषि इति सूत्रद्वयम् आयाति तेन दुग्ध इति प्रातिपदिकं सिद्ध्यति दुः धातुतः लटीरूपं प्रथमपुरुष एकवचनरूपं दुः धातुतः दोग्धि इति भवति दोग्धि इत्यत्र किमर्थं गुणकार्यं
तत्र दुः इति
उदुपधधातुः
उदुपध अपि च अदादिगणीयधातुः तत्र शप् इत्यस्य लुक् भवति दुः योगः ति इति भवति ति इति तिप् प्रत्ययः पित् अस्ति इति कृत्वा तत्र गुणः भवति दोः इति भवति दोः योगः ति अधुना पुनः समानानि कार्याणि दादेर्धातुर्घः घत्वं तदनन्तरं झषस्तथोर्धोधः इत्यनेन प्रत्ययस्य धकारः ध इति आदेशः तदनन्तरं झलाञ्झषि इत्यनेन दोग्धि इति भवति
लट्लकार प्रथमपुरुषे एकवचनरूपं दोग्धि इत्यत्र तिप्रत्ययः पित् प्रत्ययः अस्ति पित्वम् आश्रित्य तत्र गुणकार्यं भवति पुगन्तलघुपदस्य च सूत्रेण गुणकार्यं भूत्वा दुः दोः भवति पश्चात् समानानि कार्याणि यथा भवती उक्तवती दादेर्धातोर्घः झषस्ततोर्धोधः झलां झष् झषि इमानि त्रीणि सूत्राणि तत्रापि प्रवर्तन्ते तेन दोग्धि इति रूपं सिद्ध्यति किन्तु द्विवचनरूपं दुग्धः बहुवचनरूपं दुहन्ति दुः योगः अन्ति
दुहन्ति
तावदेव इत्युक्ते तत्र सिद्धप्रत्ययः अन्तिप्रत्ययः लट्लकार प्रथमपुरुष बहुवचनप्रत्ययः अन्ति इति सिद्धप्रत्ययः दुः योगः अन्ति दुहन्ति दुः योगः तः द्विवचनप्रत्ययः तः अस्ति तत्रापि समानानि कार्याणि भूत्वा दुग्धः इति रूपं सिद्ध्यति वस्तुतः लटीरूपाणि दोग्धि दुग्धः दुहन्ति प्रपूरणे इत्यस्मिन् अर्थे अदादिगणीयधातुः दुः धातुः अस्ति दुग्धम् इत्यस्मिन् स्थाने पयः इति रूपं योजयितुं शक्नुमः पयः इत्यत्र प्रातिपदिकं किम्
पयस् पयस् इति भवति
रूपाणि वदतु
पयः पयसि पयांसि पयः पयसि पयांसि
एवं रूपाणि भवन्ति दुग्धम् इत्यस्मिन् स्थाने क्षीरम् इति अपि योजयितुं शक्नुमः क्षीरं रूपाणि वदतु
क्षीरम् इति नपुंसकलिङ्गशब्दः अतः ज्ञानं गृहं वत् क्षीरं क्षीरे क्षीराणि क्षीरं क्षीरे क्षीरे क्षीराणि
क्षीराणि इत्यत्र
क्षीराणि अत्र नणत्वमस्ति अत्र रेफः अस्ति निमित्तरूपेण रेफः अस्ति तदनन्तरं नकारः अस्ति तत्र अट्कुप्वाङ्नुं व्यवायेपि इत्यनेन णत्वं भवति यतोहि रेफ नकारयोः मध्ये आकारः तिष्ठति तत्तु व्यवधानः अस्ति तत् व्यवधानेपि अणत्वं भवति अट्कुप्वाङ्गं व्यवायेपि इत्यनेन.
उत्तमं. दुह् धातोः क्तान्तरूपं दुग्धम् अस्ति, क्तवत् रूपं
क्तवत् दुग्ध दुग्धवान्
स्त्रीलिङ्गे
दुग्धवती इति
तत्र प्रातिपदिकं दुग्धवत्. तुमन्नन्तं रूपं किमस्ति?
तद् तदेव अहं चिन्तितवती यदा यदा भवती पृष्टवती पूर्वं तुमन्त दोहितुं भवति इति मन्ये. न न सोरि, क्तवतु कित् प्रत्ययः अस्ति.
तुमन् प्रसङ्गे पृच्छन्ती अस्मि.
आमां क्षम्यता. तत्तु कित् 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 नास्ति, यत्णित् अपि नास्ति, अतः सामान्य आर्धधातुकप्रत्ययः इति कृत्वा तस्य सः गुणप्रवर्तकः अस्ति. अतः दुह इत्यस्य दोह भवति, दोहत् योगः तुमुन्. अत्र सेट् अस्ति इति मन्ये, सः सः धातुः अनिट् अस्ति.
अनिट् अस्ति. दोग्धि अपि च दुग्धम् इत्यत्र यथा सन्धिकार्याणि भवन्ति तथा एव अत्रापि सन्धिकार्याणि भवन्ति. किमर्थं चेत् तत्र तकारः अस्ति खलु, तुमुन् इत्यत्र तकारः अस्ति खलु, अतः अत्रापि समानानि कार्याणि भवन्ति, सन्धिकार्याणि.
दोग्धुम् इति रूपं,
दोग्धुम्. अपि च दुह् धातोः तृजन्तरूपं दोग्धा, दोग्धा गोपालनन्दनः इति श्रुतवती खलु,
दोग्धा गोपालनन्दनः. आम्,
श्रीकृष्णः दोग्धा गोपालनन्दनः इति श्लोकः अस्ति. दोग्धा इति तृजन्तम् अस्ति. तत्र प्रातिपदिकं
दोग्धृ इति भवति इति मन्ये.
स्त्रीलिङ्गे रूपं किं?
कर्ता इत्यस्य कर्त्री भवति, अत्र दोग्ध्री भवति.
दोग्ध्री भवति, बहु सम्यक्, धन्यवादः भगिनी. दुह् धातोः रूपाणि इमानि. तृजन्तरूपं पुंलिङ्गे दोग्धा, स्त्रीलिङ्गे दोग्ध्री. अग्रे सरेम. रमेश् महोदय, भवान् करोतु.
दाता, भोक्ता, भोक्तारः, भोजनम्. अस्तु. दाता, भोक्ता, भोक्तरीना, सप्तमी अस्ति तत्. भोक्त्रे, दाता भोक्त्रे भोजनं ददाति.
भोक्त्रे इति उक्तवान्. भोक्त्रे इत्यत्र प्रातिपदिकं भोक्तृ, ङेप्रत्ययं योजयतु.
भोक्तृ ङेप्रत्ययं, भोक्तृ ङे, भोक्त्रि, भोक्त्रे गुणकार्यम् अस्ति वा तत्र? भोक्तरे न, गुणकार्यं नास्ति. ऋ अपि च
रेपः आगतः,
रेपः आगतः, यणसन्धिः, यणसन्धि एव तत्र. भोक्त्रे इति रूपं सूचयति.
इको यणचि इति सूत्रेण यणादेशः भवति. केवलं ऋकारस्य स्थाने एव रेफादेशः भवति, उभयोः स्थाने नास्ति. केवलं ऋकारस्य स्थाने एव रेफादेशः भवति. भोक्तृयोगः ये इत्यत्र ऋकारस्य स्थाने रेफादेशः, तेन भोक्त्रे इति रूपं भवति. भोक्ता इति उक्तवान्, तत्र प्रातिपदिकं
भोक्तृ.
कीदृशं रूपं?
तृजन्तरूपम् अस्ति.
तृजन्तरूपम् अस्ति. भुज् इति धातुः, भुज् धातुतः तृच् योजयतु.
भुज् इति धातु तृच्, तृच् इति अर्धधातुकप्रत्ययः अस्ति. भुज् इति धातुः उपादायाम् उकारः अस्ति, तर्हि गुणवर्णः अस्ति, गुण अनुकूलवर्णः अस्ति. पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति. भोज् योगः तु जकारस्य, भोज् योगः तु जकारस्य ककारः चोहकुः, चोहकुः भवति वा?
भवति, किन्तु जकारस्य स्थाने कः वर्णः आयाति?
जकारस्य स्थाने घकारः आगच्छति. तत्पश्चात् चत्वं भवति खरी च इति सूत्रेण.
तेन
तेन घकारस्य स्थाने ककारः आगच्छति, भोक्तृ इति रूपं सिद्ध्यति. तकारः खरी अस्ति, तर्हि भोक्तृ भवति.
उत्तमम्. अत्र सोपानत्रयमस्ति. भुज् इति धातुः, तृच् प्रत्ययं योजयामः. तृच् प्रत्ययः आर्धधातुककृत् प्रत्ययः. आर्धधातुककृत् प्रत्ययः चेदपि कित् नित् णित् नित् भिन्नः सामान्य आर्धधातुककृत् प्रत्ययः. अपि च धातुः उदुपधधातुः, पुगन्तलघुपदस्य च सूत्रेण गुणः भूत्वा भुज् भोज् भवति. पश्चात् चोः कुः इति सूत्रेण तकारः झल् वर्णः अस्ति इति कारणतः जकारस्य स्थाने आदौ गकारः, तेन भोग् इति रूपं. पश्चात् खरि च सूत्रेण चर्त्वं भूत्वा भोक् इति भवति. भोक् योगः तृ, भोक्तृ इति प्रातिपदिकं. पुंलिङ्गे भोक्ता, स्त्रीलिङ्गे भोक्त्री इति रूपं भवति. अत्र दाता इति कीदृशं पदम्?
दातृ इति प्रातिपदिकम् अस्ति. दाययोगः तृच्छेव, तदपि तृजन्तपदमेव.
तृजन्तपदमस्ति. दातृ इति प्रातिपदिकमस्ति, तृजन्तपदमस्ति, पुंलिङ्गे अस्ति. स्त्रीलिङ्गे किं रूपम्?
दात्री.
श्रुतवान् खलु, सकलसम्पत् प्रदात्री. श्रुतवान् खलु, प्रदात्री इति स्त्रीलिङ्गरूपम् अस्ति. दात्री. दाधातुतः तृच् योजनेन दाता इति रूपं पुंलिङ्गे. प्रातिपदिकं दातृ. दाधातुतः ल्युट् योजयतु.
दानम्.
दानम्, उत्तमम्. अनियर् योजयतु.
दानीयम्.
तव्यत् योजयतु.
दातव्यम्,
उत्तमम्. दाधातुतः क्तवतु योजयतु.
दत्तवान्.
दत्तवान्. तत्र तु कानिचन विशिष्टकार्याणि सन्ति खलु.
दत्तवान् तकारस्य तकारादेशः. दा दत्तादेशः प्रायः.
दोदद्घोः, दोदद्घोः इति सूत्रेण दत् आदेशः भवति. दत्तवान् इति रूपं सिद्ध्यति. क्तान्तप्रसङ्गे अपि तत् सूत्रं कार्यं करोति. दाधातोः क्तान्तरूपं दत्तम्. दाधातोः क्त्वान्तरूपं
क्तान्तरूपं वा
क्त्वान्तरूपं
दत्त्वा.
उत्तमं. ल्यबन्तं वदतु, ल्यबन्तं साधयतु. उपसर्गं योजयित्वा वदतु.
ल्यब् प्र दीय, प्रायः दीय अस्ति वा. ल्यबन्तरूपे प्रदाय एव किमपि नूतनं नास्ति खलु तत्र.
तत्र केवलं वर्णमेलनमेव.
ल्यप्
इत्यत्र अनुबन्धवर्णाः के?
ल्यप् इत्यत्र लकारः लषपतदिति सूत्रेण गच्छति, पकारः हलन्तमिति सूत्रेण संज्ञा भूत्वा तस्य लोपः इति सूत्रेण अपगच्छति. तर्हि केवलं यकारः,
यकारः इति वदामः वा? नो,
यकारणा य अपि च य अवशिष्यते.
बहु सम्यक्. या अवशिष्यते. यकारः इति कथनेन केवलं यकारः, यकारोत्तरवर्ती अकारः अपि अस्ति खलु. उत्तमं. प्रदाय इति रूपम्. आदाय इति सामान्यं पदम्. आदाय, सन्दाय, प्रदाय इमानि रूपाणि. किन्तु धा इति धातुः अस्ति चेत् निधाय इति भवति. किन्तु अत्र अल्पप्राणदकारयुक्तधातुः दाधातुः. प्रदाय, आदाय, सन्दाय इमानि रूपाणि सन्ति. निधाय इति भिन्नम्. विधानं, विधाय, तत्र धातुः भिन्नः किन्तु अत्र भिन्नः खलु.
अत्र धा इति धातुः महाप्राणधा,
महाप्राणधकारयुक्तधातुः भिन्नः.
धारणपोषणयोः धा तदेव अस्ति खलु.
उत्तमम्. अत्र भोजनम् इति पदं दत्तमस्ति, तत् किम्?
लिडन्तपदमस्ति.
भुज् धातुतः
ल्युट्. ल्युट् इति अर्धधातुकप्रत्ययः अस्ति. लकारः लषपतदिति सूत्रेण अपगत इत्संज्ञा भवति. ल्युट् तकारः हलन्तमिति सूत्रेण इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण अपगच्छति. द्वयम् अपगच्छति. अपि च युवर्णाकौ इति सूत्रेण यु स्थाने अन् आदेशः भवति. बुज्जियोगः अन्
वा अन वा
अन 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 न तद् यदा अन्नाडा इति श्रूयते तदेव मम अन इदानीं सम्यक् अस्ति अन इति आदेशः भवति तत्र भुज् इति उग उपधायाम् उकारः अस्ति तर्हि पुगन्धलघुपदस्य च इति सूत्रेण भोज् योगः अन भोजन ल्युट् च इति सूत्रेण नपुंसकं संज्ञा प्राप्नोति नपुंसक संज्ञा इति वक्तव्यं वा नपुंसकरूपं प्राप्नोति भोजनम् इति रूपं सिद्ध्यति
बहु सम्यक् दाता भोक्त्रे भोजनं ददाति इति दत्तमस्ति तत्र भोक्तृ इत्यस्य बहुवचनरूपं वक्तव्यं वदतु
भोक्ता भोक्तारो भोक्तारः भोक्तारः किं भोक्तारः भोक्ता भोक्तारो भोक्तारः भोक्तारं भोक्तारौ
भोक्तॄन्
भोक्तॄन् भवेत्
किन्तु अत्र चतुर्थी बहुवचनं वक्तव्यं
भोक्तृभ्यः पितृभ्यः भोक्तृभ्यः भोक्तृभ्यः तदेव केवलं वर्णमेलनमेव
सन्धिकार्यद्वयं
सन्धिकार्यद्वयं ससजुषोरुः अपि च करवसानयोर्विसर्जनीयः पदान्ते पदान्ते अस्ति सुप्तिगन्तं पदं सुबन्तम् अस्ति तर्हि पदसंज्ञा अस्ति तत्र तर्हि ससजुषोरुः इति सूत्रस्य प्रसक्तिः अस्ति
उत्तमं पदसंज्ञा अस्ति इति कारणतः ससजुषोरुः इति सूत्रं पदान्तकार्यं भवति तेन सूत्रेण तदपि वक्तव्यं सकारस्य स्थाने रु आदेशः भवति रु इत्यत्र उकारः अनुनासिकः उपदेशजनुनासिक इति सूत्रेण उकारस्य इति संज्ञा अपि भवति पश्चात् भोक्तृभ्यर् इति रूपं सिध्यति भोक्तृभ्यर् इति स्वीकृत्य खरवसानयोर्विसर्जनीयः इति सूत्रेण रेफस्य स्थाने विसर्गादेशः तेन भोक्तृभ्यः इति रूपं सिध्यति दाता भोक्तृभ्यः भोजनानि ददाति इति वाक्यं भूमा भगिनी अग्रिमं वाक्यं भवती करोतु
प्रकृतिः कर्ता कर्तारः प्रेरणा प्रकृतिः कर्त्रे
कर्त्रे
कर्त्रे कर्ता कर्तार
कर्त्रे इति चतुर्थी एकवचनमेव
कर्त्रे कर्त्रे प्रेरणां ददाति प्रकृतिः प्रेरणां ददाति
यस्मै ददाति तस्य चतुर्थी विभक्तिः खलु यः ददाति तस्य प्रथमा विभक्तिः यं ददाति तस्य द्वितीया विभक्तिः अत्र प्रेरणां ददाति कः ददाति प्रकृतिः ददाति कस्मै ददाति कर्त्रे ददाति अत्र इतोपि वक्तुमिच्छति वा अस्मिन् प्रसङ्गे
पुल्लिङ्ग बहुवचने कर्तुं शक्नोमि
करोतु
प्रकृतिः कर्त्रे कर्तृभ्यः
प्रेरणा इति पदं स्त्रीलिङ्गपदमस्ति स्त्रीलिङ्गपदमस्ति इति कारणतः एकवचने प्रेरणां तत्र बहुवचनरूपं वदतु प्रेरणा इत्यस्य द्वितीया विभक्ति बहुवचनरूपं
द्वितीया विभक्ति बहुवचनं प्रेरणां
लताशब्दवत् वक्तव्यं
लताः प्रेरणाः प्रेरणाः ददाति
प्रकृतिः कर्तृभ्यः
प्रेरणाः ददाति
प्रेरणां ददाति इति एकवचने साधु एव किन्तु तदपि बहुवचने वक्तव्यं चेत् प्रेरणाः ददाति
प्रेरणाः ददाति
प्रकृतिः इति एकवचने अस्ति तदपि बहुवचने वदतु
प्रकृतिः मतिः मतिः मतयः प्रकृतयः प्रकृतयः कर्तृभ्यः प्रेरणाः ददति
बहु सम्यक् प्रकृतिः इति पदमस्ति तत्र शुभदा भगिनी वदतु तत् किं पदं
प्रकृतिः इति किं वक्तव्यं भगिनि
कृदन्तपदं धातुः प्रत्ययः
धातुः प्र कृ इति प्रत्ययः इति मन्ये.
कृ इति धातुः.
कृ इति धातुः. मम चित्तं किञ्चित् अन्यस्थले अस्ति, अन्यस्मिन् स्थले. प्र इति उपसर्गः, प्रयोगः, कृ इति धातुः, क्तिन् इति प्रत्ययः, स्त्रियां क्तिन्, स्त्रियां क्तिन् इति सूत्रम् इति मन्ये. अतः प्र कृ क्तिन्, क्तिन् इत्यस्मात् ति, अतः प्रकृतिः इति भवति इति मन्ये. न सम्यक् जानामि भगिनि.
साधु एव. क्तिन् इति प्रत्यये अनुबन्धवर्णाः के?
क्तिन् इत्यस्मात् नकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, अपि च ककारस्य लशक्व तद्धिते इत्यनेन इत्संज्ञा, उभयोः लोपः, तस्य लोपः इत्यनेन ति इति अवशिष्यते.
उत्तमम्. क्तिन् इति प्रत्ययः अस्ति. क्तिन् प्रत्ययः तकारादिप्रत्ययः चेदपि सेट् प्रत्ययः नास्ति. सामान्यतया तकारादिप्रत्ययाः सेटः भवन्ति, किन्तु क्तिन् प्रत्ययः अपवादत्वेन विशिष्टसूत्रेण सेट् प्रत्ययः नास्ति, अतः विडागमः न दृश्यते. आर्धधातुक कृत् प्रत्ययः, आर्धधातुकप्रत्ययः चेदपि अस्मिन् प्रत्यये इडागमः न भवति, खलु? उत्तमं. प्रकृतिः इति कथनेन स्वभावः, स्वभावः इति कथनेन स्वस्य भावः.
सत्यं, स्वस्य भावः.
कर्ता इति रूपं दत्तमस्ति. कर्ता इति पुंलिङ्गे, स्त्रीलिङ्गे
कर्त्री इति भवति.
कर्तृ इति प्रातिपदिकं. कर्तृ इत्यत्र कृ इति धातुः अस्ति. कृ धातुतः तृच् योजयतु.
कृ इति धातुः धातुतः तृच्, अत्र तृच् इत्यस्मात् चकारः अपगच्छति हलन्त्यम् इत्यनेन, तस्य लोपः इत्यनेन लोपः. तृ इति अवशिष्यते. कृ योगः तृ, तृ इति कित्ङित् नास्ति, इतणित् अपि नास्ति. आर्धधातुकसामान्यप्रत्ययः इति कृत्वा गुणप्रवर्तकः, अतः कृ इत्यस्य कर् इति गुणः भवति. कर् योगः तृ कर्तृ इति भवति. तत्तु
गुणकार्यं केन सूत्रेण भवति?
सार्वधातुकार्धधातुकयोः इत्यनेन.
किमर्थं चेत् धातुः ईगन्तधातुः.
हा, धातुः ईगन्तधातुः, सत्यं.
गुणकार्यं भूत्वा कृ कर् भवति. कर्योगः तृ, वर्णमेलनेन कर्तृ इति प्रातिपदिकम् अस्ति. पुंलिङ्गे कर्ता, स्त्रीलिङ्गे कर्त्री इति भवति. चतुर्थीरूपं पुंलिङ्गे कर्त्रे इत्यत्र पूर्वं महोदयः उक्तवान् एव, इको यणचि इति सूत्रेण यणादेशः भूत्वा ऋकारस्य स्थाने रेफादेशः भवति, अतः कर्त्रे इति रूपं सिध्यति. प्रेरणा इति रूपं स्त्रीलिङ्गरूपं भवति. गणना, प्रेरणा ईदृशानि पदानि स्त्रीलिङ्गपदानि. तत्र युच् इति प्रत्ययः अस्ति. निजन्तधातुभ्यः युच् प्रत्ययः विहितः भवति इति एका वार्ता अस्ति. णिजन्तधातुभ्यः युच् प्रत्ययस्य योजनेन ईदृशानि रूपाणि साधयितुं शक्नुमः. गणधातुतः युच् योजनेन गणना इति रूपं. प्र उपसर्गपूर्वकः ईर् धातुः अपि अस्ति. प्रेरणा इति स्त्रीलिङ्गपदं सिध्यति. प्रेरणा इति कथनेन प्रेरणं, गणना इति कथनेन गणनं इति अर्थः एव अस्ति. प्रेरणम् इति ल्युडन्तरूपम् अस्ति, किन्तु प्रेरणा इति आकारान्त स्त्रीलिङ्गशब्दः. अग्रिमं वाक्यं भूमा भगिनी करोतु.
प्रेर धातुः कः भगिनि? क्षम्यताम्,
अत्र प्रा उपसर्गपूर्वक ईर् धातुतः.
अस्तु अस्तु.
णिच् योजयति चेदेव
निजन्तरूपस्य
युच् प्रत्ययः. भवती जानाति खलु सर्वे प्रत्ययाः सर्वेभ्यः धातुभ्यः न विहिताः भवन्ति,
सत्यम्.
अपि च अत्र प्रेरणा इति आकारान्तपदं साधयितुं स्त्रीप्रत्ययः अपि आवश्यकः. भूमा भगिनी अग्रिमं वाक्यं.
नेता कविः, नेता कवेः मानपत्रं ददाति.
कविः इति शब्दस्य मुनिः अस्ति चेत्, हरिः इति अस्ति चेत् तत्र चतुर्थी एकवचनं किं वक्तव्यम्?
हरिणा, हरे, हरि, हरि, हरये,
मुनये, एवमेव
कवये मानपत्रं ददाति.
बहुवचने वदतु.
कविये कविभ्यां कविभ्यः
नेतृप्रातिपदिकमस्ति. नेता इत्यस्य त्रीणि रूपाणि वदतु, प्रथमाविभक्तिरूपाणि.
नेता, नेतारो, नेतारः. नेतारः कविभ्यः मानपत्राणि ददति.
उत्तमं. मानपत्राणि इति उक्तवती, तत्र णत्वमस्ति, किमर्थम्
णत्वं? कारणात् णत्वम् अस्ति.
उत्तमम्. अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण तत्र णत्वं भवति, न तु रसाभ्यां नोणः. रसाभ्यां नोणः इति सूत्रं तत्र कार्यं न करोति. पत्राणि इति कथनेन रेफोत्रवर्ति आकारः अस्ति. आकारः अट्प्रत्याहारस्थवर्णः. तत्र अट्कुप् वाङ्नुं व्यवायेपि सूत्रेण अणत्वं भवति. नेता इति पदमस्ति, नेतृ इति प्रातिपदिकमस्ति. सूर्यकुमारी भगिनी भवती वदतु, तृजन्तपदम् इदं साधयतु. नी धातुतः तृच् योजयतु.
नी धातुतः तृच् अर्धधातुकप्रत्ययः अस्ति, तत्कारणात् गुणः भवति. नी योगः तृच्, ने योगः तृच्, चकारलोपः भवति हलन्तमित्यनेन. ने योगः तृ, नेतृ भवति.
नेतृ इति प्रातिपदिकमस्ति, पुंलिङ्गे नेता इति रूपं भवति, स्त्रीलिङ्गे
नेत्री भवति.
अभिनेत्री इत्युक्ते?
अभिनेत्री, अभिनेतृ भवति.
अभिनेत्री इत्युक्ते एक्ट्रेस्, खलु?
भगिनि
उत्तमं. नी धातोः रूपमेव नेता. नी धातुतः तृच् योजनेन, तृच् प्रत्ययः आर्धधातुककृत् प्रत्ययः, किन्तु कित् नित् णित् नित् भिन्नः आर्धधातुकसामान्यप्रत्ययः. धातुः युगन्तधातुः, अतः सार्वधातुकार्धधातुकयोः सूत्रेण गुणः भवति. तेन नी इत्यस्य रूपं ने भवति, पश्चात् वर्णमेलनेन नेतृ इति प्रातिपदिकं, खलु? नी धातोः रूपमेव नेत्रम्. नेत्रम् इत्युक्ते चक्षुः. अपि च नी धातोः लटीरूपं वदतु, एकवचनरूपम्.
लटीरूपं नियोगः नयति.
उत्तमं भगिनि, सम्यक् स्मारितवती. नयति, नयति साधयतु.
नियोगः
भुवादिगणीयः,
सेप्पायाति ति प्रबाद्य. नियोगः सेप् सार्वधातुक अर्धधातुकयोः इत्यनेन ने भवति. ने योगः आ यचोयवायावः इत्यनेन आयाति. नय भवति, नययोगः इति नयति.
लटीरूपम्. एवं कविः इत्यत्र कवि प्रातिपदिकमस्ति, चतुर्थी विभक्ति एकवचनप्रत्ययः, ञे प्रत्ययः अस्ति. कवियोगः ञे इत्यस्यां दशायां घेर्णीति सूत्रेण गुणः, पश्चात् यचोयवायावः इति सूत्रेण अयादेशः भवति. तेन कवये इति रूपं सिद्ध्यति. मानपत्रम् इत्युक्ते अर्थः कः?
मनस्यति भवति, तत् लिखति.
सम् उपसर्गस्य योजनेन सम्मानम्. मानम् इति कीदृशं पदम्?
ल्युडन्तम्.
ल्युडन्तमस्ति. मा धातुतः ल्युट् योजनेन मानम्. सम्मानम्, सम्मानपत्रम्, आदरपत्रं, प्रशंसापत्रम् इति वक्तुं शक्यते वा? मानपत्रम् इत्यस्य अर्थः कः? नेता कवये मानपत्रं ददाति.
नेता कवये मानपत्रं, सम्मानपत्रं वा?
सम्मानपत्रम्, आदरपत्रं, प्रशंसापत्रं, खलु?
भगिनि.
रमेश महोदय भवान् वदतु, साधु वा?
साधु एव भाति.
शुभदा भगिनि भवती वदतु, अवगमनं साधु अस्ति वा?
आं भगिनि, तदेव. सम्मानकर्तुं किमपि पत्रं ददाति, तत्तु सम्मानपत्रं, प्रशस्तिपत्रकम् इति वदेत् इति मन्ये.
प्रशंसापत्रं.
प्रशंसा.
अग्रिमं वाक्यं भवती करोतु शुभदा भगिनी.
कृषकः जन्तुः इति प्रातिपदिकम् उकारान्तपुल्लिङ्गप्रातिपदिकं तस्य चतुर्थीविभक्तिः पुनः जन्तवे इति भवति. कृषकः जन्तवे आहारं ददाति इति भवति. जन्तुः इति उकारान्तपुल्लिङ्गप्रातिपदिकं तस्य वयं दृष्टवन्तः सूनुः वटुः गुरुः तद्वदेव. अत्रापि घीसंज्ञा भवति तस्य घेर्ङितिः इत्यनेन गुणः भूत्वा एचो यवायावः इत्यनेन द्वयोः सूत्रयोः योजनेन जन्तवे इति भवति. कृषकः जन्तवे आहारं ददाति. तत्र बहुवचने जन्तुभ्यः इति भवति. कृषकः जन्तुभ्यः आहारं ददाति. कृषकाः कर्तुमिच्छन्ति चेत् कृषकाः जन्तुभ्यः आहारं ददति इति भवति.
आहारान् अपि वक्तुं शक्यते खलु.
आहारान् आहारः अस्ति वा आहारम् अस्ति वा.
आहारः साधयतु हृधातोः रूपमेव हारः.
आ उपसर्गपूर्वकः हृधातुः तस्य घञ् प्रत्ययः भवेत् खलु. तत्र घञ् प्रत्ययः भूत्वा आहारः घञ् इति यत् प्रत्ययः अस्ति. अधुना आर्धधातुक यत् प्रत्ययः अतः तस्य अचोयणिति इत्यनेन अजन्तस्य अङ्गस्य वृद्धिः भवति. ऋ इति ऋकारः अस्ति अन्ते अतः तस्य वृद्धिः हारः इति भवति. अतः आहार अ इति भवति. घञ् इत्यस्मात् अ इति अवशिष्यते. आहारः इति सिद्ध्यति पुल्लिङ्गे.
घञ्यन्तरूपाणि पुंलिङ्गपदानि एव भवन्ति. अत्र हुरुधातुः अजन्तधातुः अजन्तधातुः अस्ति इति अपि च तस्मात् परं घञ् प्रत्यये चवर्गीय अन्तिमव्यञ्जनम् इति संज्ञकव्यञ्जनम् अस्ति इति कारणतः अचोर्णिति इति सूत्रेण अजन्तधातुभ्यः इणिति प्रत्यये परे वृद्धिकार्यं भवति. अतः हृ इत्यस्य रूपं हार् भवति. आ उपसर्गः अस्ति. आयोगः हार् योगः आहार आहार इति प्रातिपदिकं पुंलिङ्गपदं प्रथमाविभक्ति एकवचनरूपम् आहारः. कृष् धातोः रूपमेव कृषकः. कृष् धातुः गणद्वये अस्ति. भुवादिगणे कृष् धातुः अस्ति चेत् लटिरूपं किं भवति. कृष् इति धातुः भुवादिगणे अस्ति.
कृष् इति भुवादिगणीय धातुः अस्ति चेत् कृष् योगः तत्र भुवादिगणस्य शप् इति विकरणप्रत्ययः. कृष् योगः शप् योगः इति. कृष् योगः अयोगः इति. शप् इति पित् अस्ति इति कृत्वा गुणः भवति. कर्ष् इति भवति. कर्ष् योगः अयोगः इति. कर्षति कर्षति कर्षतः कर्षन्ति इति रूपाणि.
उत्तमं. यः भूमिं कर्षति सः कर्षकः. कर्षकः इति णुवुल् अन्तं रूपं. कृष् धातुतः णुवुल् योजनेन कर्षकः इति रूपं सिद्ध्यति. तत्र किं चिन्तनं. कृष् योगः णुवुल्.
कृष् योगः णुवुल्. णुवुल् इत्यस्मात् वु इति अवशिष्यते. वु इत्यस्य युवोरनाकौ इत्यनेन अक इति आदेशः. कृष् योगः अक. अक इति अधुना अजादि आर्धधातुकप्रत्ययः.
कृष् धातुः उदुपधधातुः अपि च आर्धधातुक णित्प्रत्ययः एव किन्तु पुगन्तलघुपदस्य च कार्यमेव भवति.
भवति णित् प्रत्ययः अस्ति परन्तु
अजन्तधातुः नास्ति इति कारणतः अचोणिति कार्यं नास्ति.
नास्ति. अपि च उपधायामपि अत् नास्ति. ह्रस्व अकारः नास्ति इति कृत्वा अत उपधायाः इत्यस्य कार्यमेव कार्यमपि न भवति. णित् प्रत्ययः तु भवति परन्तु तस्य फलितः किमपि नास्ति अत्र. अतः पुगन्तलघुपदस्य च इति सामान्यसूत्रम् अत्र कार्यं करोति. तेन उपधायां लघु इक् अस्ति इति कृत्वा तस्य गुणः भूत्वा कर्ष् इति भवति. कर्षकः इति रूपं. परन्तु अत्र तु कृषकः इति दत्तमस्ति खलु.
तत्र भिन्नप्रत्ययः ऊणादिप्रत्ययेन निर्मितम् इति मया दृष्टमासीत्. धातुः तु कृष् एव. धातुः तु कृष् एव किन्तु ऊणादिप्रत्ययेन निर्मितं कृषकः इति पदं. कृषकः कर्षकः द्वयोः अर्थः समानः इति मया ज्ञातम्। अस्तु, कृष् धातोः लट्टीरूपं भुवादिगणे अस्ति चेत् कर्षति इति भवति, कृष् इति एव धातुः तुदादिगणे अस्ति चेत् किं भवति? रमेश् महोदय, भवान् वदतु, कृष् धातुः तुदादिगणे अस्ति,
तुदादिगणे अस्ति चेत् श विकरणप्रत्ययः भवति, तत् तत्र गुणः न भवति, कृषति इति रूपं सिद्ध्यति,
कृषति इति रूपं सिद्ध्यति, तत्र गुणकार्यं न भवति। श विकरणप्रत्ययः शित्वात् सार्वधातुकः एव, किन्तु अपित् अस्ति इति कारणतः क्निति च सूत्रेण गुणनिषेधः भवति इति कारणतः कृषति इति रूपमेव भवति। कृषु धातुः गणद्वये अस्ति, भुवादिगणे अस्ति, विलेखने इत्यस्मिन् अर्थे एव, तुदादिगणे अपि अस्ति। अत्र जन्तुः इति पदं दत्तमस्ति, जन् धातोः रूपम् इति चिन्तयितुं शक्यते वा? जन् धातोः लटीरूपं किम् अस्ति? रमेश् महोदय वदतु, जन् धातोः लटीरूपम्?
जानाति।
ज्ञा धातोः लटीरूपं जानाति।
ज्ञा जनोर्जा ज्ञा ज्ञा जन्
जन् धातोः रूपं जायते,
जायते, हा जायते।
अत्र किं वक्तुं शक्यते? एकं वाक्यं वदतु जायते उपयुज्य।
जायते,
शिशुः जायते,
शिशुः जायते,
अकर्मकधातुः इत्यतः कर्मपदं न स्वीकरोति, जन्तुः जायते, कर्मपदं न स्वीकरोति, जन् धातोः रूपमेव जायते। तत्र चिन्तनं किमस्ति इति प्रश्ने सति, तत्र ज्ञाजनोर्जा इति सूत्रेण जन् इत्यस्मिन् स्थाने जा आदेशः भवति इति एका वार्ता। अपि च अयं धातुः दिवादिगणे अस्ति, दिवादिगणे अस्ति इति कारणतः दिवादिभ्यः श्यन् इति सूत्रेण श्यन् विकरणप्रत्ययः आयाति। श्यन् इत्यस्मिन् शकारनकारयोः अनुबन्धलोपः, पश्चात् या अवशिष्यते, तत्र जा योगः या योगः ते, जायते इति रूपं सिद्ध्यति। आहारः इति पदं वयं जानीमः, तस्मिन् स्थाने अन्यत् पदं वदतु।
भोजनं,
भोजनं, इतोपि
अस्ति,
खादनमपि वक्तुं शक्यते खलु,
खादनक्रिया। अस्तु, अशनं श्रुतवान् खलु
भगिनि?
सूर्यकुमारी भगिनी, जन्तुशब्दस्य रूपाणि द्वितीया विभक्तिपर्यन्तं वदतु।
जन्तुः, जन्तवः, जन्तुः,
जन्तु,
जन्तु, जन्तवः, द्वितीयविभक्तिः जन्तु, जन्तु, जन्तून्।
अस्तु, अग्रिमं वाक्यं रमेश् महोदय भवान् करोतु, अग्रिमं वाक्यम्।
भवान् व्यक्तिः वस्त्राणि, भवान् व्यक्तये वस्त्राणि ददाति।
व्यक्तये इति उक्तवान्, तत्र रूपद्वयम् आयाति,
व्यक्ति इति गीसंज्ञकः अपि च नदीसंज्ञकः भवति, हा तर्हि
मतिशब्दवत्
मतये मत्यै, तर्हि व्यक्त्यै अपि वक्तुं शक्यते, व्यक्त्यै वस्त्राणि ददाति, व्यक्तये वस्त्राणि ददाति,
व्यक्त्यै इति उक्तवान्, तत्र किं चिन्तनमस्ति? आण् नद्याः एतत् सर्वं वदतु, व्यक्त्यै,
व्यक्त्यै इति रूपं साधनीयं वा? हा, व्यक्तियोगः ञे इति स्थिति, तत्र व्यक्ति इति नदीसंज्ञकः अस्ति, तर्हि आन्नद्याः इति सूत्रेण नदीसंज्ञकस्य आ आदेश आगमः भवति,
आट् आट् आगमः भवति, तत्र सन्धिकार्यं कुर्मः चेत् आडागमः, आट् नद्याः इति पदविच्छेदं कुर्मः चेत् आट् आगमः भवति, आगमः इति कथनेन नूतनतया आकारः आगतः आदेशः नास्ति आगमः भवति आण् नद्याः सूत्रेण आडागमः भवति तेन व्यक्तियोगः आट् योगः ने
इति स्थितम् इकार इकार अकारस्य स्थाने द्वयोः स्थाने दीर्घादेशः भवति वा
भवान् चिन्तयतु शुभदा भगिनी भवती विवृणोतु अत्र किं चिन्तनम् अस्ति व्यक्त्यै
तत्र व्यक्ति इति इकारान्त शब्दः तस्य विकल्पेन नदीसंज्ञा भवति ङितिह्रस्वश्च इति सूत्रेण ङित् प्रत्यये परे तस्य एकस्मिन् पक्षे नदीसंज्ञा अन्यस्मिन् पक्षे घीसंज्ञा भवति यत्र घीसंज्ञा भवति तत्र व्यक्तये इति भवति यत्र नदीसंज्ञा भवति तत्र व्यक्तियोगः ङे तत्र आण् नद्याः इत्यनेन आडागमः आट् इति आद्यन्तौ टकितौ इत्यनेन आद्यावयवः इति कृत्वा आट् ए इति भवति ए इत्यस्य वृद्धिः भूति
अत्र आट् आगमः टित् आगमः अस्ति इति कारणतः टित् आगमाः प्रत्ययस्य आदौ आयान्ति प्रत्ययस्य आगमः भवति खलु
सत्यं सत्यं
प्रत्ययस्य आदिम अवयवः भवति अत्र प्रत्ययः ञे प्रत्ययः अस्ति ञे प्रत्ययस्य आदिम अवयवः भवति आट् आगमः अग्रे वदतु
हा प्रत्ययस्य आद्यावयवः आदिम अवयवः इति आट् इति भवति तत्र आट् इत्यस्य टकारस्य इत्संज्ञा भूत्वा आ इति अवशिष्यते आ ऐ आ ए इति परिस्थितिः भवति तत्र आटश्च इत्यनेन वृद्धिः भवति तेन आट् इत्यस्मात् परं यः अच् वर्णः तस्य वृद्धिः भूत्वा ऐ इति भवति आ ऐ ऐ इति भवति वृद्धिरेचि इत्यनेन अतः व्यक्तियोगः ऐ अत्र इको यणचि इत्यनेन व्यक्त्यै इति भवति
व्यक्तियोगः ऐ इति स्थितिः अस्ति व्यक्ति इत्यत्र इकारः अस्ति इकारात् परम् इको यणचि इकः स्थाने यणादेशः अचि परे अत्र ऐकारः अपि अच् वर्णः अस्ति अत्र इक् वर्णः इकारः अस्ति केवलम् इकारस्य स्थाने एव यकारादेशः भवति इको यणचि इति सूत्रेण यणादेशः तेन अग्रे वदतु घिसंज्ञा भवति चेत्
घिसंज्ञा भवति चेत् यथा वयं दृष्टवन्तः तत्र मति मतिवत् रूपाणि भवति मतये मत्यै तद्वत् व्यक्तये इति भवति घिसंज्ञा अस्ति इति कारणात् घेर्ङिति इत्यनेन गुणः भूत्वा व्यक्ते योगः ए तदनन्तरं एचो यवायावः इत्यनेन व्यक्तै योगः ए व्यक्तये प्रकृतिप्रत्ययमेलनं भवति अतः व्यक्तये व्यक्त्यै इति रूपद्वयम्
मतिशब्दवत् रूपाणि वक्तव्यानि व्यक्त्यै व्यक्तये इति रूपं भवति व्यक्तिः इति पदमस्ति व्यक्तिः इत्यत्र वि उपसर्गः अस्ति क्तिन् प्रत्ययः अस्ति इति चिन्तयतु अञ्ज् इति धातुः अस्ति वि उपसर्गः अञ्ज् इति धातुः क्तिन् इति प्रत्ययः अत्र चिन्तनं किम् अस्ति
अञ्ज् इति धातुः वा अस्तु वि उपसर्गपूर्वकः अञ्ज् इति धातुः व्यञ्ज् इति भवति व्यञ्जयोगः क्ति इत्यस्य ति इति अवशिष्यते क्ति इति स्त्रियाङ् तिङ् इत्यनेन तस्य स्त्रीरूपं भवति अत्रापि क्ति क्तिङ् इति क्षम्यतां क्तिन् इति प्रत्ययः कित् अस्ति परन्तु कित् अर्धधातुकप्रत्ययः परन्तु तत्र गुणः न भवति तत्र एकं सूत्रमस्ति
अनिदितां हलौपधाया क्निति इति सूत्रेण अञ्ज् धातुः अनिदित् धातुः अनिदितां हलौपधाया क्निति क्तिन् प्रत्ययः कित् प्रत्ययः धातुः अनिदित् धातुः अञ्ज् इति लेखनावसरे कथं लिखामः किमर्थं तथा पूर्वं दन्त्यनकारः एव आसीत् दन्त्यनकारः एव आसीत् किन्तु नश्चापदान्तस्य जलि अनुस्वारस्य ई परसवर्णः एतत् सर्वं भूत्वा चवर्गीय अन्तिमव्यञ्जनं लिखामः अत्र वस्तुतः दन्त्यनकारः एव पूर्वम् आसीत् तस्य नकारस्य लोपः भवति अनिदितां हलौपधाया क्निति इति सूत्रेण क्तिन् प्रत्ययः कित् प्रत्ययः अतः अञ्ज् इत्यत्र नकारस्य लोपः भवति चेत् किं रूपं सिद्ध्यति अज् वियोगः अजियोगः ति वियोगः अजियोगः ति अस्ति. इदानीं चोः कुः करोतु, कुत्वं करोतु.
व्यग् भवति तदनन्तरं खरिच इत्यनेन व्यक् भवति, व्यक् योगः ति व्यक्ति इति भवति.
उत्तमम्. अञ्ज् धातुतः अक्तिः इति क्तिनन्तरूपम्. अञ्ज् धातुतः क्तिन् योजनेन अक्तिः. वि उपसर्गं योजयतु.
हा, व्यक्तिः इति भवति, यणसन्धिः भवति तत्र.
यण्सन्धिकार्यं भूत्वा व्यक्तिः. धातुः तु अञ्ज् धातुः. अञ्ज् धातोः ल्युडन्तं किं भवति?
अञ्ज् धातुः ल्युडन्तं, ल्युट् इति, तस्मात् यु अवशिष्यते, तस्य अक इति भवति आदेशः. तत्र अञ्ज् योगः अक, अत्रापि
अन अन,
क्षम्यताम्, अन 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 अक न अन इति भवति. अञ्जन अत्र किमपि
कार्यं नास्ति,
कार्यं नास्ति. उपाधानकारस्य लोपः अत्र न भवति, यतोहि तत्र कित्ङित् नास्ति प्रत्ययः, ल्युट् इति प्रत्ययः कित्ङित् नास्ति, अतः अञ्ज इति अवशिष्यते. अञ्ज योगः अन अञ्जनं भवति वा?
अञ्जनम्. अञ्जनम् इति रूपं जानीमः खलु. वि उपसर्गस्य योजनेन ल्युडन्तं किं भवति? वि उपसर्गपूर्वक अञ्ज् धातुतः ल्युट्.
व्यञ्जनम् इति भवति.
व्यञ्जनम् इत्युक्ते
व्यञ्जनं, स्वराः व्यञ्जनानि इति, व्यञ्ज वर्णाः सन्ति खलु.
उत्तमं. स्वराः व्यञ्जनानि च. अस्तु, व्यञ्जनम् इत्युक्ते करि इति अर्थः अपि अस्ति खलु.
सत्यं सत्यं.
सूप शाकादयः एव व्यञ्जनानि खलु.
सूपशाकादयः.
व्यञ्जनम् इत्यत्र वि उपसर्गः अस्ति, अञ्ज् धातुः अस्ति, ल्युट् इति प्रत्ययः अस्ति. व्यञ्जनम् अनिदितां हल उपधायाकनिति इति सूत्रेण नकारलोपः भवति, पश्चात् चोः कुः सूत्रेण कुत्वं, खरिच सूत्रेण चर्त्वं भूत्वा अक्ति इति रूपं सिद्ध्यति. वि उपसर्गः अस्ति इत्यतः यणादेशः भूत्वा व्यक्ति. सूर्यकुमारी भगिनी अग्रिमं वाक्यम्.
शिक्षकः अध्येत पुस्तकानि ददाति. शिक्षकः अध्येत अस्ति.
अध्येतृ इति प्रातिपदिकम्.
अध्येतृ छात्रः. अध्येतृ अध्येत्रे पुस्तकानि ददाति.
शिक्षकः इत्यत्र शिक्ष् इति धातुः अस्ति, णुवल् इति प्रत्ययः अस्ति. वदतु.
शिक्षयोगः णुवल्.
णुवल् इत्यस्य अनुबन्धलोपः.
णुवल् आदिन्युटुडवः इत्यनेन
टुटु सूत्रेण.
ओ, छुटु सूत्रेण, क्षम्यताम्. छुटु सूत्रेण णुवल् नकारलोपः.
भवती जानाति खलु चुटु इत्यत्र चवर्गीयव्यञ्जनानि, टवर्गीयव्यञ्जनानि, टवर्गीयव्यञ्जनमेव टठडढण. चुटु सूत्रेण णकारस्य इति संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति. अग्रे
लकारलोपः भवति हलन्तम् इत्यनेन. ऊ यो ऊ यो एव अवशिष्यते. युवोरनाकौ इत्यनेन अक आदेशः भवति. शिक्षयोगः अक वर्णमेलनेन शिक्षकः भवति.
उत्तमम्. अध्येता इति पदं दत्तमस्ति, तत् कीदृशं पदम्?
तृच् प्रत्यय. अधि योगः अधियोगः तृच्.
अधियोगः तृच् वा? तत्र धातुः कः? अधीति उपसर्गः अस्ति, किन्तु धातुः आवश्यकः खलु.
अधियोगः इयो इन्
इन् अध्ययने इत्यस्मिन् अर्थे धातुः अस्ति. इन् अध्ययने.
ओके. अधियोगः इन् योगः तृच्. तृच् अर्धधातुकप्र तृ एव वशिष्यते. अर्धधातुक अस्ति चेत् गुणं भवति अधियोगः ये भवति तत्र अध्ये भव अधियोगः ये भवति इको एनचि इत्यनेन यकार आयाति अध्य योगः ये अध्ये भवति
रमेश महोदय इतोपि स्पष्टतया वदतु अध्येतृ इत्यत्र अधि उपसर्गः इङ् इति धातुः तत्र ञकारः इति संज्ञकः धातोः अनुबन्धवर्णानां लोपकारे अनन्तरम् इ अवशिष्यते अध्ययने इत्यस्मिन् अर्थे इ धातुः अस्ति अधियोगः इ योगः तृच्
अधियोगः इ योगः तृच् तृच् साधारण आर्धधातुकप्रत्यय अस्ति अधि अध्येते हा एकारः भवति गुणं भूत्वा ईकारस्य एकारः आदेशः भवति अधियोगः ये योगः तृ अध्येतृ इति रूपं सिद्ध्यति
अध्येतृ अध्येत्रे इति चतुर्थी रूपमस्ति अध्येतृभ्यः इति चतुर्थी बहुवचनरूपमस्ति अध्येता इत्युक्ते यथा भगिनी उक्तवती छात्रः स्टूडेण्ट् अयं धातुः सर्वदा अधिपूर्वकः इति मम अवगमनमस्ति तव्यत् रूपं वदतु महोदय अस्य धातोः तव्यत् रूपम्
अधीतव्यम्
अधीतव्यं वा नो चेत्
न अध्येतव्यम् अध्येतव्यम्
अध्येतव्यम्
अध्येतव्यं भवति
अनियरूपम् अध्ययनीयम्
अध्ययनीयम्
ल्युडन्तमस्ति अध्ययनम्
अध्ययनं ल्युडन्तम्
अध्ययनम् केवलम् ई धातुं स्वीकरोतु ई धातोः ल्युडन्तं किं भवति
केवलम् ई इति वा
केवलम् ई ई इत्युक्ते अत्र इङ् इति अध्ययने इत्यस्मिन् अर्थे
एनं भवति खलु एनं भवति
न तत्र चिन्तयतु ई धातोः परं ल्युट् अस्ति ल्युट् अर्धधातुकप्रत्ययः ई धातुः ईगन्तधातुः
ए भवति खलु ई स्थाने ए आदेशः गुणं भूत्वा
कार्यं करणीयं खलु
अण अस्ति खलु अण ए योगः अण एकारस्य य य तर्हि य यय इति भवति
एकारस्य स्थाने अय आदेशः
अयनम्
अयनम् इति भवति ई धातोः ल्युडन्तरूपम् अयनं भवति अयनं भवति अधि उपसर्गं योजयामश्चेत्
अध्ययनं भवति
अध्ययनं भवति यण्सन्धिकार्यं भूत्वा इकारस्य स्थाने यकारः आयाति अधियोगः अयनम् अध्ययनम् अत्र इङ् धातुः अध्ययने इत्यस्मिन् अर्थे अस्ति अस्य धातोः लटिरूपाणि एवं भवन्ति अधीते अधीयाते अधीयते एवं रूपाणि भवन्ति लटिरूपाणि अधीते अधीयाते अधीयते अध्येतव्यम् अध्ययनीयम् अध्ययनम् इमानि पदानि अस्य धातोः रूपाणि एव अग्रिमं वाक्यं सूर्यकुमारी भगिनी करोतु
अध्यक्षः श्रोतारः उपायनानि ददाति अध्यक्षः श्रोता प्रातिपदिकमस्ति श्रोतृ तृच् प्रत्यययोजनेन अध्यक्षः श्रोत्रे उपायनानि ददाति
श्रोत्रे इति उक्तवती तत्र किं कार्यमस्ति ञप्रत्यये परे श्रोतृ इति प्रातिपदिकं चतुर्थी विभक्ति एकवचनप्रत्ययः ने प्रत्ययः श्रोतृ इति प्रातिपदिकं
श्रोतृयोगः ने तत्र यनसन्धि भवति रेफ एव आयाति श्रोत्रे भवति
इको यणचि इति सूत्रेण यण्सन्धिकार्यं भवति खलु
भगिनि
उत्तम अध्यक्षः इत्युक्ते कः
अधीक्षः
अधि उपसर्गः अस्ति अधियोगः अक्षधातुतः एकः कृतप्रत्ययः अस्ति अचीति भाति अधियोगः अक्षधातुतः कृदन्तपदमेव
कृदन्तप्रथम प्रत्येव
अचिति भाति महोदय भवान् वदतु अध्यक्षः इत्युक्ते कः रमेश महोदय
यः नेतृत्वं ददाति प्रायः यः यत् कोऽपि करोति तस्य अवलोकनं करोति इति अध्यक्षः ओवर्सियर् इति यदि आङ्ग्लेन वदामः
आङ्ग्लभाषया वदामश्चेत् सूपर्वैसर्
सूपर्वैसर् ओवर्सियर् मेनेजर्
उत्तमं सूपर्वैसर् चेर् पर्सन् एतत् सर्वं वक्तुं शक्यते अधि उपसर्गः अस्ति अक्षधातुतः निर्मितं पदम् अत्र उपायनम् इति पदं दत्तमस्ति उप उपसर्गः अस्ति अयनम् इति ल्युडन्तम् अस्ति अयनम् इति रूपं कथं साधनीयम्
धातुतः ल्युडन्तम् अयनमेव भवति खलु
खलु अयनम् इति रूपं ल्युडन्तं रूपम् अस्ति ई धातोः रूपमपि अयनं भवितुमर्हति वस्तुतः धातुः एव ऐ अस्ति चेत् ऐ इति धातुः ऐ इति कथनेन आदौ अकारः पश्चात् यकारः तत्रापि ल्युडन्तरूपम् अयनं भवति इत्युक्ते अयनम् इति भवति इत्युक्ते अयनम् इति ल्युडन्तरूपं साधयितुं तत्र त्रयः धातवः सन्ति ऐ धातुतः निर्मितं पदमपि अयनम् इण् इति धातुः अस्ति तस्य धातोः रूपमपि अयनमेव इङ् एकः अन्यधातुः इङ् अध्ययने इत्यस्मिन् धातौ अपि अयनम् इति रूपं साधयितुं शक्नुमः आहत्य मम आशयः कः अत्र त्रयः धातवः सन्ति तेषां ल्युडन्तरूपम् अयनम् इति रूपम् एते त्रयः धातवः गत्यर्थकाः गत्यर्थकधातवः एते त्रयः अय धातुः अस्ति चेत् अयते इति लटि रूपम् ई धातोः रूपम् एति अस्ति एकः ई धातुः अस्ति गत्यर्थकधातुः तत्र एति इति रूपमस्ति उपायनम् इत्यत्र सन्धिकार्यमस्ति महोदय वदतु
उपायनम्
उपायोगः अयनम्
उपायोगः अयनम् उपायनं सवर्णदीर्घसन्धिः अस्ति
सवर्णदीर्घसन्धिः अस्ति उपायनं तत्र दन्त्यनकारः एव अस्ति न तु मूर्धन्यनकारः खलु
दन्त्यनकारः एव अस्ति उपायनं तत्र इक् इति अपि एकः धातुः अस्ति खलु महोदय तदपि अयनम् एव भवति वा इण् एकमस्ति इङ् एकमस्ति इक् इति तृतीयः धातुः
इक् अस्ति चेत् ककारः इति संज्ञकः अस्ति चेदपि अयनं भवितुमर्हति एते धातवः गत्यर्थकधातवः उपायोगः अयनम् उपायनम् इति रूपं तत्र सवर्णदीर्घसन्धिकार्यं भूत्वा उपायनम् इति रूपं सिध्यति उपायनम् इत्युक्ते किमर्थं गिफ्ट् इति अर्थः आगतः
येन गतौ इति अर्थे प्रायः ददाति इति यद्
उपायनम् इति कथनेन समीपगमनम् इति योगार्थः उपकृष्णम् इत्युक्ते कृष्णस्य समीपम् इति वदामः खलु गिफ्ट् प्रेसेण्ट् इति अर्थः अस्ति खलु किमर्थं तथा आगतम् उपायनम् इत्युक्ते गिफ्ट् खलु
आम् तदेव अर्थः उपायनं कथमागतं तद् गिफ्ट् इति अध्ययने एकमस्ति गतौ इण् गतौ इति एकमस्ति इक् स्मरणे स्मरणे इति इक् स्मरणे इति यद् इक् अस्ति तत् स्मरणे इति अर्थे अस्ति उपायनं स्मारयतु इति दत्तमस्ति वा तत् राजा
चिन्तनीयम् उपायनम् इत्युक्ते गिफ्ट् एव किन्तु तत्र उप उपसर्गपूर्वक अयनम् इति ल्युडन्तरूपमस्ति सवर्णदीर्घसन्धिकार्यमस्ति उपायनम् अग्रे कानिचन रूपाणि दत्तानि तानि रूपाणि एकवारं पठित्वा समापयामः केवलं रूपाणि पठामः रूपसिद्धिः कथं भवति इति अन्या वार्ता भूमा भगिनी भवती पठतु सर्वाणि रूपाणि
उच्चैः पठत लिखत च पुल्लिङ्गे नपुंसकलिङ्गे च तस्मै ताभ्यां तत् श्रीलिङ्गे तस्यै ताभ्याम् एतत् पुलिङ्गे नपुंसकलिङ्गे च एतस्मै एताभ्याम् पुलिङ्गे पुलिङ्गे च स्त्रीलिङ्गे नपुंसकलिङ्गे च रूपाणि दत्तानि
अग्रे अपि रूपाणि सन्ति पठतु
स्त्रीलिङ्गे एतस्यै एताभ्यां
बहुवचनरूपमपि वक्तव्यं खलु
ओ ओ एतस्यै एताभ्याम् एताभ्यः किं पुल्लिङ्गे नपुंसकलिङ्गे च कस्मै काभ्यां केभ्यः किं स्त्रीलिङ्गे कस्यै काभ्यां काभ्यः सर्व पुल्लिङ्गे नपुंसकलिङ्गे च सर्वस्मै सर्वाभ्यां सर्वेभ्यः सर्व स्त्रीलिङ्गे सर्वस्यै सर्वाभ्यां सर्वाभ्यः युष्मद् त्रिषु लिङ्गेषु तुभ्यं युवाभ्यां युष्मभ्यम् अस्मद् त्रिषु लिङ्गेषु मह्यम् आवाभ्याम् अस्मभ्यम् भवत् पुल्लिङ्गे नपुंसकलिङ्गे च भवते भवद्भ्यां भवद्भ्यः भवत् स्त्रीलिङ्गे भवत्यै भवतीभ्यां भवतीभ्यः
इमानि रूपाणि स्मर्तव्यानि खलु स्मर्तव्यानि मनसि स्थापनीयानि सर्वनामशब्दानां रूपाणि अत्र दत्तानि तेषां रूपसिद्धिः कथं भवति इति अन्या वार्ता तस्य चिन्तनम् अद्य मास्तु आगामिन्यां कक्षायाम् एतेषां रूपाणां सिद्धिः रूपसिद्धिः कथं भवति इत्यस्य चर्चां करिष्यामः इदानीम् अत्र स्थगयामः सर्वेषां धन्यवादाः